दैतदृश्यतां दिक्षुतावका त्वयि धृता स्व स्वाम विचिन्वते शरदुदाशये साधुजातस सुरतनाथ ते अशोकदासिका अखिल देहि नाम अंतरात्म विखन सार्थी तो विश्व गुप्त सखो दे कुले विरचिता भयम् वृष्णिधूर्यते सरोरुहं कांत कामदं शिरसि देहिनः श्रीकर व्रज जनार्तिहं वीरजोषिता जनास्मय भंसनास्मित भज सखे भव चरानुगम श्रीनिकेतनम् प्रणिपणार्पितम् ते पदाम्बुजम् शेषुनः कुम्भिरेच्छयम् सुंदरम नाथ ते पदम शूल तृणांकुर सीदति तिनः मनः कांत गच्छति दिन परीक्षये नीलकुंतले बिभ्रदावृतम् धनरजस्वलम् दर्शयन् कामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदे शन्तमं च ते रमणनस्तमेष्वर्पयाधिहन् वर्धनम् शोकनाशनम् Yeah. भक्ति यद् भवान् अहनिकाननम् युगायते त्वाम् पश्यता कुटिलकुन्तलम् श्रीमुखं च ते कृदृशा पतिसुतान्वय भ्रातृबान्धवा यजमनाक्षना स्त जन हे त्रुजाम यन शूतनम यत् सुजात चरणाम्बुरुहं स्तनेषु भीताशने प्रियदधि महि कर्कशेषु तेनाटवीमटसि तद् व्यथते न किं स्वेत् उर्पादिभिर्भ्रमतिभिर्भवदायुषां न तव कथामृतं ताप्तजीवनं कविभिरीडितं कल्मषापहं श्रवणमं Krishna